इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः वैश्विक दक्षिणस्य विशिष्टतया अफ्रीकादेशस्य समाह्वानानां प्राथमिकताम् अददात् इति आवाहनं कृतवान्। इटली देशस्य अपुलियायां जी सप्त शिखर सम्मेलने आउटरीच सत्रं सम्बोधयन् श्रीमोदी स्मरणं कृतवान् यत् अफ्रीकादेशः भारतस्य अध्यक्षत्वे जी विंशति संघस्य स्थायी सदस्यत्वेन प्रविष्टवान्, अतः भारतस्य कृते गौरवस्य विषयः वर्तते। श्रीमोदिना भारतस्य ऊर्जा संक्रमण मार्गस्य विषये विस्तरेण उक्तम् यत् तस्य दृष्टिकोणः उपलब्धता सुलभता सामर्थ्य स्वीकार्यता च आधारिता अस्ति। सः उल्लेखितवान् यत् भारतं 70+2000 वर्षपर्यन्तं नेट जीरो इति लक्ष्यं प्राप्तं कार्यं कुर्वन् अस्ति। भारतस्य मिशन लाइफ इत्यस्य संकेतं कृत्वा सः वैश्विक समुदायस्य आवाहनं कृतवान् यत् ते विश्व पर्यावरण दिवसस्य अवसरे तेन समारब्धस्य आन्दोलने प्लैनेट फॉर मदर एक पेड़ मा के नाम इत्यस्मिन् भागं स्वीकुर्वन्तु। प्रधानमन्त्री नरेन्द्रमोदी ह्यः इटली देशम् अपुलिया नगरे समायोक्ष्यमाणे जी सप्त शिखर सम्मेलने भागं ग्रहणाय सम्प्राप्तवान्। असौ इटली देशस्य प्रधानमन्त्रिणः जियोर्जिया मिलोनी इत्यस्याः निमन्त्रणे द्विदिवसीय यात्रायां वर्तते। तृतीय कार्यकाले तस्य प्रथम विदेशयात्रा जी सप्त शिखर सम्मेलनाय वर्तते। इटली देशस्य अपुलियायां ह्यः जी सप्त शिखर सम्मेलनावधौ प्रधानमन्त्री नरेन्द्रमोदी इटली देशस्य प्रधानमन्त्रिणा जियोर्जिया मिलोनी इत्यनया सह द्विपक्षीयोपवेशनं कृतवान्। उभौ नेतारौ द्विपक्षीय रक्षा सुरक्षा सहकार्य विषये चर्चां कृत्वा रक्षा औद्योगिक सहकार्यम् अधिकं वर्धिष्यति इति आशां प्रकटितवन्तौ। तौ भारत इटली सामरिक सहभागस्य प्रगतेः समीक्षां कृतवन्तौ। केन्द्रीय गृहमन्त्री अमित शाहः ह्यः नवदिल्ल्यां मन्त्रालयस्य वरिष्ठाधिकारिभिः सह उपवेशनं कृत्वा जम्मूकश्मीरस्य सुरक्षास्थितेः समीक्षां कृतवान्। श्रीशाहेन केन्द्रशासिते क्षेत्रे सुरक्षास्थितेः समीक्षायै अमरनाथ यात्रायाः सज्जतायै च रविवासरे नॉर्थ ब्लॉक इत्यत्र उपवेशनस्य आयोजनस्य निर्देशः प्रदत्तः। सिक्किम राज्ये अधिकारिणः पुष्टिं कृतवन्तः यत् उत्तर सिक्किमस्य लाचुंग नगरे मार्गावरोध कारणात् अटन्तः 12% देशीयाः तथा 15 विदेशीयाः पर्यटकाः पर्याप्त भोजन सामग्रीभिः सह सुरक्षिताः सन्ति। निष्कासन प्रक्रियासु विमानं मार्ग निष्कासनं वा अन्तर्भवति। मुख्यमन्त्री प्रेमसिंह तमांगः मिंटोगंग गंगटोक इत्यत्र उच्चस्तरीय उपवेशनं कृत्वा स्थितेः समीक्षा कृतवान्। तिस्तानद्याः जलस्तरस्य वर्धनेन संकलं क्षेत्रे पुरातनः लटकन सेतु नवनिर्मितः बेली सेतुः च जले पतितौ येन उत्तर सिक्किम राज्यस्य जोन्धु प्रदेशेन सह महत्वपूर्णः सम्पर्कः खण्डितः। आईसीसी इत्यस्यां पुरुषाणां 20-प्रतिविंशति विश्व चषक प्रतिस्पर्धायां अफगानिस्तान दलेन पापुआ न्यू गिनी दलं त्रिनिदाद इत्यत्र ब्रायन लारा क्रिकेट क्रीडांगणे 7 स्तोभैः पराजितम् इति वार्ताः।